सर्वेभ्यो नमः. गतवर्गे वयं क्रियापदस्य लट् लकारः इति रूपं तस्य अभ्यासं कृतवन्तः. लट् लकारः कीदृशः, लट् लकारः कीदृशः भवति इति अपि ज्ञातवन्तः. तत्र क्रियापदं वाक्ये किं भवति? सः गच्छति, सा गच्छति, अथवा सः गच्छति, ते गच्छन्ति, त्वं गच्छसि, अहं गच्छामि. अतः कर्तृपदम् अन्यत् भवति चेत् क्रियापदरूपमपि अन्यत् भवति. कर्तृपदम् अनुसृत्य क्रियापदस्य रूपं भवति. यदि कर्तृपदम् उत्तमपुरुषः अस्ति चेत् एकं रूपम् अस्ति, कर्तृपदस्य अन्यत् रूपं मध्यमपुरुषत्वम् इति अस्ति चेत् क्रियापदस्य रूपम् अन्यत् भवति. कर्तृपदस्य उत्तमपुरुषं कर्तृपदम् उत्तमपुरुषं भवति चेत् क्रियापदस्य गच्छामि, गच्छावः इति तादृशं भवति इति जानीमः. तस्य एव अभ्यासः अद्यतनविषयः अस्ति. तत्र प्रथमतया किं भवति इत्युक्ते, वयं साधारण क्रियापदानाम् अभ्यासं कुर्मः, अग्रे विशेषक्रियापदानाम् अभ्यासं कुर्मः. तत्र किमर्थं विशेष साधारण अपि विशेषक्रियापदा पदम् इति किमर्थं, तत्र भेदः कः इति अग्रे पश्यामः. अस्तु, प्रथमं एतत् कुर्मः. पठति इति, पठति इति क्रियापदस्य रूपम् एकवारं सर्वे एकमेकं वदामः. तत्र पठति इति, तत्र वेणुगोपाल महोदय पठति इति नवरूपाणि वदतु. नवरूपाणि इत्युक्ते वचनम् एकवचनं, द्विवचनं, बहुवचनम् अपि उत्तम प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष.
अस्तु महोदय, प्रथमपुरुष एकवचनं,
केवलं पठति, नवरूपाणि वदतु तावदेव. पठति, पठतः,
पठति, अस्तु, पठति, पठतः, पठन्ति, पठति, पठतः, पठथ, पठामि, पठावः, पठामः
इति अस्ति. अस्तु, समीचीनं महोदय. शोभा भगिनी, तिष्ठति इति?
तिष्ठति, तिष्ठतः, तिष्ठन्ति, तिष्ठसि, तिष्ठतः, तिष्ठथ, तिष्ठामि, तिष्ठावः, तिष्ठामः
इति अस्ति. समीचीनं. भानुचैतन्य महोदय, पश्यति इति?
पश्यति, पश्यतः, पश्यन्ति, मध्यमपुरुष पश्यसि, पश्यतः, पश्यथ, उत्तमपुरुष पश्यामि, पश्यावः, पश्यामः
इति अस्ति. समीचीनम्. उषा भगिनी, तत्र वदति,
वर्तमानकाले लट्लकाररूपं वदति, वदतः, वदन्ति, वदसि, वदतः, वदथ, वदामि, वदावः, वदामः
इति अस्ति. समीचीनम्. हा, धन्यवादः भगिनी. हा, गीताञ्जलि भगिनी अग्रे, इच्छामि, इच्छति इति?
अस्तु महोदय, इच्छति, इच्छतः, इच्छन्ति, इच्छसि, इच्छतः, इच्छथ, इच्छामि, इच्छावः, इच्छामः
इति अस्ति. समीचीनं भगिनी. नमस्कार रघुपति महोदय, नमस्कार वंशीविसुधा भगिनी.
नमस्कार
महोदय. अस्तु, तत्र किं, कथयसि इति रघुपति महोदय, कथयति,
कथयति, कथयति, कथयतः, कथयन्ति, कथयसि, कथयतः, कथयथ, कथयामि, कथयावः, कथयामः.
हा, समीचीनं महोदय. वंशीसुधा भगिनी, उपविशति इति
पदं किं महोदय?
उपविशति,
उपविशति, उपविशति, उपविशतः, उपविशन्ति, उपविशस्, उपविशसि, उपविशतः, उपविशथ, उपविशामि, उपविशावः, उपविशामः
इति अस्ति. समीचीनं. अस्तु, एतत् प्रथमस्तरः क्रियापदस्य रूपं कीदृशम् इति नवरूपाणि मनसि स्थापयामः. अग्रिमस्तरः अस्ति तत्र नामपदस्य योजनं. प्रथमं क्रियापदम्, इदानीम् अग्रिमं किं कुर्मः, तत्र नामपदमपि योजयामः. प्रथमं केवलं एतत् कुर्मः, तत्र अकारान्त सः इति तद् स्वीकृत्य वदामः. तदनन्तरम् अन्यानि पदानि अपि संयुज्य वदामः. अस्तु अस्तु, तत्र वेणुगोपाल् महोदय, सः पठति इति.
सः पठति, तौ तथौ, ते ते पठन्ति.
सः पठति, तौ
तौ पठतः पठतः, ते पठन्ति.
इदानीं त्वम् अपि अहम् इति.
अस्तु, त्वं पठसि, तौ पठतः.
त्वं त्वम् इति त्वं तदनन्तरं किम् अस्ति?
त्वं त्वं युवां युवां पठतः पठतः, यूयं पठतः.
अहम्
अहं क्षम्यताम्, अहं पठामि, आवाम् आवां
पठावः,
वयं वयं पठामः.
समीचीनं महोदय. हा, तत्र इदानीं यत् अभ्यासं कुर्वन् स्मः तत्र किं भवति, केवलम् उत्तमपुरुषे परिवर्तनं भवति. सः अथवा बालिका अथवा बालिके अथवा आचार्यः, तत्रैव भेदः भवति. तदनन्तरं मध्यमपुरुष केवलम् एकमेव पदम् अस्ति तत्र, त्वं युवां यूयम्. उत्तमपुरुषे तत्र कोऽपि विकल्पः नास्ति, चाय्स् नास्ति, तत्र केवलम् अहम् आवां भयं तदेव भवति सर्वदा. अस्तु, इदानीम् अग्रे तदेव तत्र किं कुर्मः. अस्तु अस्तु, हा उषा भगिनी, क्रीडति इति,
सः
क्रीडति, सः क्रीडति इदानीं,
सः क्रीडति, तौ क्रीडितः, ते क्रीडन्ति, त्वं क्रीडसि, युवां क्रीडितः, यूयं
क्रीडतः क्रीडतः
क्रीडतः, यूयं क्रीडत, अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः.
हा, इति अस्ति. समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनी, नमति, सः नमति.
सः नमति, तौ नमतः, ते नमन्ति, त्वं नमसि, युवां नमतः, यूयं नमथ, अहं नमामि, आवां नमावः, वयं नमामः.
इति अस्ति. समीचीनं भगिनि. अस्तु भानुचेतिनी महोदय, हसति, सः हसति.
प्रथमपुरुष सः हससि, आम् सः हसति, तौ हसतः, ते हसन्ति. मध्यमपुरुष त्वं हससि, युवां हसतः, यूयं हसथ. उत्तमपुरुषः अहं हसामि, आवां हसावः,
वयं
वयं हसामः.
समीचीनं महोदय. अस्तु धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनी, खादति, सः खादति.
सः खादति, तौ खादतः, ते खादन्ति, त्वं खादसि, युवां खादतः, यूयं खादतः, अहं खादामि, आवां खादावः, वयं खादामः.
इति अस्ति. समीचीनम्. इदानीं वंशीसुधा भगिनी, पतति इति, सः पतति, पतति,
सः पतति, सः पतति, तौ पततः, ते पतन्ति, त्वं पतसि, युवां पततः, यूयं पतथ, अहं पतामि, आवां पतावः, वयं पतामः.
इति अस्ति. समीचीनं भगिनि. रघुपति महोदय, उत्तिष्ठति, सः उत्तिष्ठति
सः उत्तिष्ठति तौ उत्तिष्ठतः ते उत्तिष्ठन्ति त्वम् उत्तिष्ठसि युवाम् उत्तिष्ठतः यूयम् उत्तिष्ठथ अहम् उत्तिष्ठामि वयम् आवाम् उत्तिष्ठामः वयम् सारि आवाम् उत्तिष्ठावः वयम् उत्तिष्ठामः
इति अस्ति समीचीनं महोदय अस्तु इदानीं सः इति तद् अभवत् इदानीं नूतनकर्तृपदं तत्र स्थापयामः अस्तु तत्र उषा भगिनी बालकः पठति इति
बालकः
पठति
बालकः पठति बालकौ पठतः बालकाः पठन्ति
तावदेव त्वं तत्सर्वं वयं कृतवन्तः खलु केवलं तदेव अस्तु समीचीनम् अस्तु अग्रे भानुचेतनी महोदय बालिका पठति
महोदय क्रियापदं किं
पठति पठति बालिका पठति
पठति पठति एव आं महोदय बालिका पठति बालिके पठतः बालिकाः पठन्ति
समीचीनं महोदय इदानीं त्वं तद् तत्सर्वं वयं तत्र भेदः न भवति खलु तत्र त्वम् अहम् अतः तत् त्यजामः केवलं प्रथमपुरुषस्य रूपं किम् इति वदामः अस्तु अग्रे शोभा भगिनी तरुणः गायति
गायति
तरुणः गायति
तरुणः तरुणः गायति तरुणौ गायतः तरुणाः गायन्ति
इति अस्ति समीचीनम् इदानीं वेणुगोपाल महोदय भक्तः नमति
भक्तः नमति
भक्तौ
भक्तौ नमतः भक्ताः नमन्ति
इति अस्ति समीचीनम् इदानीं गीताञ्जलि भगिनी वानरः आगच्छति
वानरः आगच्छति वानरौ आगच्छतः वानराः आगच्छन्ति
समीचीनं भगिनि अस्तु रघुपति महोदय अध्यापकः वदति
अध्यापकः वदति अध्यापकौ वदतः अध्यापकाः वदन्ति
इति अस्ति समीचीनं वंशीसुधा भगिनी तत्र तरुणः धावति तरुणः धावति
महोदय
तरुणः
धावति तरुणः धावति आं महोदय तरुणः धावति तरुणौ धावतः तरुणाः धावन्ति
इति अस्ति समीचीनं पुनरेकवारम् एतदेव कुर्मः वेणुगोपाल महोदय इदानीं लिखति वृद्धः लिखति
वृद्धः लिखति वृद्धौ लिखतः वृद्धाः लिखन्ति
समीचीनं शोभा भगिनी इदानीं तत्र वृद्धा गायति
वृद्धा गायति वृद्धे गायतः वृद्धाः गायन्ति
समीचीनं उषा भगिनी इदानीं पुत्री नमति
पुत्री नमति पुत्री नमति पुत्र
नदी नद्यौ नद्यः
पुत्र
पुत्र्यौ
पुत्र्यौ नमति रे
नमति
नमतः पुत्र्याः नमन्ति
नदी नद्यौ नद्यः
नद्याः
न
नदी नद्यौ नदीः
न तत् द्वितीयविभक्ति भवति नदीं नद्यौ नदीः इति प्रथमविभक्तिरूपं किम् अस्ति नदी नद्यौ
नद्यः
पुत्री किं भवति पुत्री
पुत्री पुत्र्यः
पुत्र्यौ पुत्र्यः इदानीं पुनरेकवारं सर्वं वदतु भगिनि पुत्री नमति
पुत्री नमति
पुत्र्यौ
पुत्र्यौ नमतः पुत्र्यः नमन्ति
पुत्र्यः नमन्ति नमन्ति समीचीनं भगिनि हा अस्तु भानुचेतन महोदय इदानीं यात्रिकः आगच्छति
यात्रिकः आगच्छति यात्रिकौ आगच्छतः यात्रिके आगच्छन्ति
यात्रिकः
यात्रिकाः आगच्छन्ति
हा हा सः तौ ते किन्तु रामः रामौ रामाः खलु अस्तु अग्रे गीताञ्जलि भगिनि तरुणभक्तः भक्तः यात्रिकः हा धनिकः वदति
धनिकः वदति धनिकौ वदतः धनिकाः वदन्ति
हा इति अस्ति समीचीनं हा रघुपतिमहोदय नटः नृत्यति न क्षम्यतां महोदय एकनिमिषः अस्तु हा धनिकः लिखति
धनिकः लिखति धनिकौ लिखतः धनिकाः लिखन्ति
इति अस्ति समीचीनं महोदय वंशीसुधा भगिनी चोरः गच्छति
भग्ना जाता
पुनरेकवारं चोरः गच्छति
चोरः गच्छति चोरौ गच्छतः चोराः गच्छन्ति
इति अस्ति समीचीनं वेणुगोपाल महोदय इदानीं वयं किं कुर्मः एतावत् वयं अत्र केवलम् अकारान्तपदं स्थापितवन्तः इदानीं किञ्चित् अन्यपदमपि तत्र स्थापयामः अस्तु हा भगिनी लिखति
भगिनी लिखति भगिन्यौ लिखतः भगिन्याः लिखन्ति
भगिन्यः
भगिन्यः लिखन्ति
भगिन्यः लिखन्ति इति अस्ति समीचीनं हा शोभा भगिनी तत्र माता नमति
माता नमति मातरौ नमतः मातरः नमन्ति मातरः नमन्ति
हा समीचीनं हा अस्तु भानुचेतनी महोदय तत्र धेनुः गच्छति
धेनुः गच्छति धेन्वौ गच्छतः
धेनु एतत् उकारान्त स्त्रीलिङ्गपदम् धेनुः
धेनुः गच्छति धेनु गच्छतः धेन्वः
धेनवः धेनवः धेनवः
धेनवः धेन्वः महोदय धेनवः
धेनवः गुरवः इति तादृशं किन्तु स्त्रीलिङ्गपदम् अस्ति एत अहम् इदानीं किं करोमि तत्र पुटसङ्ख्या त्रयोदशपुटे यदस्ति तद् दृष्ट्वा नामपदं चिनोमि अस्तु तत्र पश्यन्तु इदानीं किन्तु क्रियापदं तत्र 36 पेज् ततः किन्तु नामपदं त्रयोदशपुटात् अहं चिनोमि अस्तु इदानीं उषा भगिनी हा तत्र हा स्वसा लिखति इति
लिखतः
इति अस्ति हा इति अस्ति समीचीनं हा इदानीं अन्यत् किं हा पिता इति अस्ति हा अस्तु पिता पिता इदानीं कः गीताञ्जलि भगिनी पिता भ्रमति
पिता भ्रमति पितरौ भ्रमतः पितरः भ्रमन्ति
समीचीनं भगिनि हा रघुपतिमहोदय इदानीं हा भ्राता पश्यति
भ्राता पश्यति भ्रातारौ पश्यतः भ्रातारः पश्यन्ति
तत्र भ्रातरौ इति अस्ति महोदय तत्र सम्बन्धः अस्ति चेत् दीर्घं ह्रस्वः भवति नो चेत् द्विवचने भ्रातरौ नो चेत् कर्तारौ इति त्रयोदशपुटे यदस्ति तदेव अहं दृष्ट्वा वदामि अस्तु वंशीसुधा भगिनी तत्र किम् अन्यत् किं कुर्मः तत्र गुरुः उपविशति
गुरुः उपविशति गुरु उपविशतः गुरवः उपविशन्ति
इति अस्ति समीचीनं भगिनि अस्तु इदानीम् अस्तु इदानीं वयम् अग्रे किं कुर्मः तत्र यद् अस्ति तत्र इदानीम् अग्रिमस्तरः अस्ति क्रिया वाक्ये किं किं भवति इति कोऽपि वदति वा वाक्ये सरलवाक्ये किं किम् अस्ति क्रियापदमस्ति कर्मपदमस्ति कर्तृपदमस्ति एतावत् वयं केवलं कर्तृपदम् अपि क्रियापदं तस्य एव अभ्यासं कृतवन्तः इदानीं तत्र मध्ये कर्मपदमपि स्थापयामः अस्तु इदानीं अस्तु उषा भगिनी तत्र 36 यत् पुटे यत्र स्मः तत्र तृतीयवाक्यः अस्ति सचिवः वर्णयति इति खलु तत्र एतत् कुर्मः सचिवः कार्यक्रमं वर्णयति इति स्वीकृत्य वदतु भगिनि एकवारं तत्र कार्यक्रमं वर्णयति सचिवः कार्यक्रमं वर्णयति इति
सचिवः कार्यक्रमं वर्णयति सचिवौ कार्यक्रमे
कार्यक्रमम् एव तद्विवचनं मास्तु केवलं कर्तृपदं क्रियापदं द्विवचने
सचिवौ कार्यक्रमं वर्णयतः सचिवाः कार्यक्रमं वर्णयन्ति
इति अस्ति इति अस्ति तत्र अहं वृक्षं पश्यामि आवां वृक्षं पश्यावः वयं वृक्षं पश्यामः इति तत्र कर्मपदस्य रूपं तस्य परिवर्तनं न भवति यदि वयं क्रियापदस्य परिवर्तनं कुर्मः कर्तृपदस्य परिवर्तनं कुर्मः तत्र कर्मपदस्य अपि परिवर्तनं करणीयमिति किमपि नास्ति अतः तत्र अहं वृक्षं पश्यामि आवां वृक्षं पश्यावः वयं वृक्षं पश्यामः तत्र अहं वा आवां वा वयं वा कर्तृपदं भवति पश्यामि पश्यावः पश्यामः क्रियापदं भवति वृक्षम् इति कर्मपदं तस्य रूपं तदेव भवति परिवर्तनं न भवति अस्तु इदानीं शोभा भगिनी बालकः गीतं गायति
बालकः गीतं गायति बालकौ गीतं गायतः बालकाः गीतं गायन्ति
इति अस्ति समीचीनं भगिनि बालचेतनी महोदय बालिका पत्रं लिखति
बालिका पत्रं लिखति बालिके पत्रं लिखतः बालिकाः पत्रं लिखन्ति
समीचीनं महोदय अस्तु वेणुगोपाल महोदय तरुणः पाठशालां गच्छति अथवा ग्रामं गच्छति, तरुणः ग्रामं गच्छति, तरुणः ग्रामं गच्छति,
तरुणः ग्रामं गच्छति, तरुणौ ग्रामं गच्छतः, तरुणाः ग्रामं गच्छन्ति
इति अस्ति. समीचीनं. गीताञ्जलि भगिनी तत्र बालकः लोकयानम् आरोहति.
बालकः लोकयानम् आरोहति. बालकौ लोकयानम् आरोहतः. बालकाः लोकयानम् आरोहन्ति
इति अस्ति. समीचीनं. हा अस्तु, रघुपतिमहोदय अग्रे. रमेशः भोजनं खादति.
रमेशः भोजनं खादति. भोजनं खादति. रमेशौ भोजनं खादतः. रमेशाः भोजनं खादन्ति
इति अस्ति. समीचीनं. वंशीसुधा भगिनी तत्र तरुणः प्रकोष्ठं प्रक्षालयति.
तरुणः प्रकोष्ठं प्रक्षालयति. तरुणौ प्रकोष्ठं प्रक्षालयतः. तरुणाः प्रकोष्ठं प्रक्षालयन्ति
इति अस्ति. अस्तु, वेणुगोपाल् महोदय भवानपि उक्तवान् खलु. अस्तु अस्तु, हा इति अस्ति. अस्तु, तत्र कर्मपदं भवति चेदपि कर्मपदम् अस्ति चेदपि यदि क्रियापदस्य वचनं तस्य परिवर्तनं भवति चेदपि कर्मपदस्य परिवर्तनं न भवति. अस्तु, इदानीं एतत् अभ्यासं सञ्जातम्. इदानीं गृहपाठः पश्यामः. गृहपाठः आसीत् सप्तत्रिंशत्तमे पुटे इति मन्ये. 37 मध्ये तत्र एकः एव अभ्यासः अस्ति, तद् करोतु इति. तत्र गीताञ्जलि भगिनी प्रथमं वदति वा तत्र?
अस्तु महोदय.
पेज् 37 प्रथम अभ्यासः.
अस्तु महोदय.
गृहपाठ यद् आसीत्,
स्यूतः अस्ति. उदाहरण स्यूतः अस्ति, स्यूतौ स्तः, स्यूताः सन्ति.
समीचीनं भगिनि. अग्रिमं.
बालः उपविशति. बालौ उपविशतः. बालाः उपविशन्ति
इति अस्ति. तत्र एतदपि वदतु भगिनि एकवारं. त्वम् त्वम् अपि अहम् इति तदपि मध्यमपुरुष अपि उत्तमपुरुष तस्य रूपम् अपि वदतु एकवारम्.
अस्तु अस्तु महोदय. त्वम् उपविशसि. युवाम् उपविशतः. यूयम् उपविशथ. अहम् उपविशामि. आवाम् उपविशाव. वयम् उपविशाम.
तत्र म अथवा मह तत्र म इति अन्यत् रूपं भवति, अन्यत् लकारः भवति भगिनि, अतः तत्र विसर्गः वक्तव्यम् अस्ति.
अस्तु महोदय,
क्षम्यता. चिन्ता मास्तु भगिनि. अस्तु, अग्रे रघुपतिमहोदय अग्रे. अश्वः धावति इति.
एकनिमिषं महोदय. अश्वः धावति. अश्वौ धावतः. अश्वाः धावन्ति.
त्वम् अपि अहं.
त्वं 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 धावसि. युवां धावतः. यूयं धावथ. अहं धावामि. आवां धावामः. धावावः. वयं धावामः.
समीचीनं महोदय. वंशीसुधा भगिनी इदानीं महोदय भवान् अग्रिममपि करोतु तत्र.
धेनुः चरति.
वंशीसुधा भगिनी क्षम्यतां. एकनिमिष भगिनी क्षम्यतां. रघुपति महोदय अग्रिममपि करोतु, तदनन्तरं वंशीसुधा भगिनी.
अस्तु, धेनुः चरति, धेनू चरतः, धेनवः धेनुः चरतः धेनवः चरन्ति. त्वं चरसि, युवां चरतः, यूयं चरत, अहं चरामि, आवां चरावः, वयं चरामः.
हा समीचीनं महोदय. हा इदानीं वंशिष्य भगिनि क्षम्यताम्.
आं महोदय. फलं पतति, फले पततः, फलानि पतन्ति. नपुंसकलिङ्गे.
इदानीं त्वमपि तदनन्तरम् अहं.
त्वं पतति, युवां पततः, क्षम्यतां, यूयं पतत, अहं पतामि, आवां पतावः, वयं पतामः.
आवां
आवां पतावः पतावः, वयं पतामः
इति अस्ति. अग्रिममपि करोतु भगिनि.
बालः क्रीडति, बालौ क्रीडतः, बालाः क्रीडन्ति, त्वं क्रीडसि, युवां क्रीडतः, यूयं क्रीडत, अहं क्रीडामि, आवां क्रीडावः, वयं क्रीडामः
इति अस्ति. समीचीनं भगिनि. अग्रे वेणुगोपाल् महोदय.
आं महोदय. नर्तकी नृत्यति, नर्तकौ
नर्तक्यौ
नर्तकौ
नर्तक्यौ नदी नद्यौ नद्यः
नदी नद्यौ नर्तक्यौ नर्तकौ
नर्तक्यौ नर्तक्यौ
नर्तक्यौ अस्तु नर्तक्यौ नृत्ययतः
नृत्यतः
नृत्यतः नर्तक्याः
नर्तक्यः नर्तक्यः अहं न जानामि किमर्थं भवान् सर्वदा ईकारान्त एव स्त्रीलिङ्गे एव करोति. क्षम्यतां महोदय. अस्तु नर्तक्यः
नर्तक्यः नृत्यन्ति
नृत्यन्ति. त्वं
नृत्यन्ति त्वं नृत्यसि युवां नृत्यतः यूयं नृत्यतः अहं नृत्यामि आवां नृत्यावः वयं नृत्यामः.
समीचीनम्. अग्रिमम्
अग्रिमं सैनिकः आरोहति, सैनिकौ आरोहतः, सैनिकाः आरोहन्ति, त्वम् आरोहसि, युवाम् आरोहतः यूयम् आरोहता, अहम् आरोहामि आवाम् आरोहावः वयम् आरोहामः.
समीचीनं महोदय. अस्तु शोभा भगिनी अग्रे. भक्तः
भक्तः प्रयच्छति, भक्तौ प्रयच्छतः, भक्ताः प्रयच्छन्ति, त्वं प्रयच्छसि, युवां प्रयच्छतः, यूयं प्रयच्छत, अहं प्रयच्छामि, आवां प्रयच्छावः, वयं प्रयच्छामः.
अग्रिमं
नृपः तुष्यति,
दुष्टः अपि अस्ति भगिनि तत्र.
ओ क्षम्यतां महोदय. दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतः, दुष्टाः प्रणश्यन्ति, त्वं प्रणश्यसि, युवां प्रणश्यतः, यूयं प्रणश्यत, अहं प्रणश्यामि, आवां प्रणश्यावः, वयं प्रणश्यामः.
समीचीनं भगिनि, धन्यवादः. अग्रे भानुचेतनी महोदय.
महोदय प्रयच्छति इत्युक्ते किं महोदय?
गिव्
गिव् यच्छति प्रयच्छति अपि प्रकर्षेण यच्छति
प्रयच्छति यच्छति याचति इति तादृश प्रयच्छति गिव् इति.
महोदय नृपः तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति, त्वं तुष्यसि, युवां तुष्यतः, सः तुष्यतः, यूयं तुष्यत, अहं तुष्यामि, आवां तुष्यावः, वयं तुष्यामः. एषा कुप्यति, एते कुप्यतः, एताः कुप्यन्ति, त्वं कुप्यसि, युवां कुप्यथः, यूयं कुप्यथ, अहं कुप्यामि, आवां कुप्यावः, वयं कुप्यामः.
समीचीनं महोदय. उषा भगिनि अग्रिमम्.
एषः शोचति, एतौ शोचतः, एते शोचन्ति, त्वं शोषसि, युवां शोचतः, यूयं शोचथ, अहं शोचामि, आवां शोचावः, वयं शोचामः
इति अस्ति. अन्यत्रापि करोतु भगिनि. तत्र अहम् अन्यत् वदामि एकनिमेषः. तत्र गच्छति भ्रमति. वानरः आगच्छति इति. तत्र नास्ति, किन्तु सर्वे द्वयं कृतवन्तः इति कृत्वा अहम् अन्यत् अपि. वानरः आगच्छति.
वानरः आगच्छति, वानरौ आगच्छतः, वानराः आगच्छन्ति, त्वम् आगच्छसि, युवाम् आगच्छतः, यूयम् आगच्छथ, अहम् आगच्छामि, आवाम् आगच्छावः, वयम् आगच्छामः.
समीचीनं समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र अग्रिमपुटे यदस्ति तद् किञ्चित् पश्यामः. तत्र जयन्त् महोदय नमस्कारः.
नमस्कारः महोदय, क्षम्यतां.
चिन्ता मास्तु महोदय. अस्तु, तत्र वेणुगोपाल् महोदय, तत्र तत्र बहु किमपि दत्तमस्ति, किन्तु एतत् कुर्मः. तत्र प्रथमतया अस्ति इति तस्य रूपम् अस् धातोः, अस्ति स्तः सन्ति, तत्र प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष, तदेकवारं पठतु महोदय. तत्र
अस्ति स्तः सन्ति,
मध्यमपुरुषे प्रथममेव दत्तमस्ति. तत्र असि,
असि, स्तः, स्थ.
उत्तमपुरुषे
अस्मि, स्वः, स्मः
इति अस्ति. एकवारं तदेव सः अस्ति इति एकवारं तत्र अस् धातोः रूपम् एकवारं तस्य अभ्यासं कुर्मः. इदानीं सः इति उपयुज्य शोभा भगिनी तदेव वदतु, किन्तु सः अस्ति इति वदतु भगिनि.
आं महोदय, सः अस्ति, तौ स्तः, ते सन्ति.
इदानीं त्वं,
त्वं, त्वम् असि, युवां स्थः, यूयं स्थ,
अहम्,
अहम् अस्मि, आवां स्वः, वयं स्मः
इति अस्ति. तदेव भानुचितिनी महोदय, सा अस्ति इति एकवारं.
सा अस्ति, ते स्तः, ताः सन्ति,
त्वं,
त्वम् असि, त्वम् असि, त्वं युवां स्थः, यूयं स्थ, अहम् अस्मि, आवां अस्व,
आवां स्वः,
वयम् आस्म, आवां स्वः, वयं स्मः.
तद् अन्यत् रूपम् अस्ति, यद् भवान् उक्तवान् तदपि सम्यक्, किन्तु लट् लकाररूपं नास्ति. लट् लकररूपं नास्ति. अस्तु, हा समीचीनं महोदय. इदानीम् उषा भगिनी, बालिका अस्ति,
बालिका अस्ति, बालिके सह बालिकाः सन्ति,
त्वम्
असि, युवां सः, यूयं स्थ, अहम् अस्मि, आवां स्वः, वयं स्म इति अस्ति.
हा समीचीनं भगिनी. हा अस्तु, अग्रे गीताञ्जलि भगिनी, तत्र भवती अस्ति,
भवती अस्ति, भवत्यौ स्तः, स्तः, भवत्याः सन्ति, त्वम् असि, त्वं, त्वम् असि, युवां स्थः, यूयं स्थ, अहम् अस्मि, आवाम् आवां स्वः, वयं स्मः,
स्मः,
स्मः.
हा, तत्र पेज् 38 मध्ये मध्ये अधोभागे मध्यमपुरुषरूपम् उत्तमपुरुषं दत्तमस्ति खलु?
अस्तु महोदय.
हा, त्वम् असि, युवां स्वः, युवां स्तः, यूयं स्थ, अहम् अस्मि, आवां स्वः, वयं स्मः इति अस्ति. हा अस्तु, अग्रे रघुपतिमहोदय, हा पिता, पिता अस्ति,
पिता, पिता अस्ति, पितरौ, पितरौ स्तः, पितरः सन्ति, त्वम् असि, युवां स्तः, यूयं स्थ, अहम् अस्मि, आवां स्वः, वयं स्मः.
समीचीनम्. अस्तु, तत्र पुटसङ्ख्या 38 मध्ये तत्र एव सर्वं दत्तम् अस्ति, अधोभागे मध्यमपुरुषः उत्तमपुरुषरूपाणि दत्तानि सन्ति, उपरि प्रथमपुरुषस्य रूपं दत्तम् अस्ति. यत् प्रथमपुरुषस्य तत्र कोष्टकं बहु विस्तारं, बहु बृहत् अस्ति, बालकः वा मित्रं वा बालिका वा भवति वा, तत्सर्वं प्रथमपुरुषः भवति. मध्यमपुरुषः केवलं त्वं, युवां, यूयम्. उत्तमपुरुषः केवलम् अहम्, आवां, वयं. तत्र भवान् अप अथवा भवति, तत् किं भवति? प्रथमपुरुषरूपं भवति. तद् मनसि स्थापयतु, भवान् इति मध्यमपुरुषः नास्ति, किन्तु प्रथमपुरुषः अस्ति. भवान् पठसि इति कोऽपि न वक्तव्यं, भवान् पठति इति एव भवति, त्वं पठसि किन्तु भवान् पठति इति भवति. अस्तु, अग्रे वंशीसुधा भगिनी, तत्र व्यक्तिः अस्ति इति,
व्यक्तिः अस्ति, व्यक्तिः पुल्लिङ्ग इकारान्तशब्दः,
हरिशब्दः कोष्टके एव अस्ति भगिनी, व्यक्तिः, व्यक्तिः,
आम् आम्, व्यक्तिः अस्ति, व्यक्ति स्तः, व्यक्तयः सन्ति, त्वम् असि, युवां स्तः, यूयं स्थ, अहम् अस्मि, आवां स्वः, वयं स्मः.
समीचीनं भगिनि. अस्तु, जयन्त् महोदय, भवानपि वदति वा?
अस्तु महोदय.
हा अस्तु, अग्रे तत्र धेनुः अस्ति इति वदतु महोदय.
धेनुः अस्ति, धेनू स्तः, धेनवः सन्ति, त्वम् असि, युवां स्तः, यूयं स्थ, अहम् अस्मि, आवां स्वः, वयं स्मः
इति अस्ति. समीचीनं महोदय. अस्तु, कोऽपि न उक्तवान् वा एतावत् अस्ति अस् धातोः रूपाणि? अस्तु, सर्वे उक्तवन्तः इति मन्ये. अस्तु, हा तत्र तत्र गच्छ, हा अस्तु, एतदपि हा एतदपि किञ्चित् कुर्मः. अस्तु, शोभा भगिनी, तत्र सः इच्छति इति तद् तद्रूपमपि वदतु. सः इच्छति इदानीं मध्यमपुरुषे उत्तमपुरुषः अपि सः इच्छति.
आम् महोदय. सः इच्छति, तौ इच्छतः, ते इच्छन्ति, त्वम् इच्छति इच्छसि, युवाम् इच्छतः, यूयम् इच्छतः, अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः
इति अस्ति. समीचीनं भगिनि. भानुचतनी महोदय, तत्र गुरुः इति, गुरुः वदति इति,
गुरुः वदति, गुरु वदतः, गुरवः वदन्ति.
मध्यम उत्तमपुरुष अपि इदानीं.
त्वं वदसि, युवां वदतः, यूयं वदथ, अहं वदामि, आवां वदावः, वयं वदामः
इति. समीचीनं महोदय. उषा भगिनी, अत्र व्यक्तिः गच्छति,
व्यक्तिः गच्छति, व्यक्ति गच्छतः, व्यक्त्यः गच्छन्ति,
व्यक्तयः व्यक्तयः
व्यक्तयः गच्छन्ति, त्वं गच्छसि, युवां गच्छतः, यूयं गच्छथ, अहं गच्छामि, आवां गच्छावः, वयं गच्छामः इति अस्ति.
समीचीनं भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि, तत्र मुनिः वसति
वसति
मुनिः वसति
मुनिः वसति मुनी वसतः, मुनयः वसन्ति, त्वं वससि, युवां वसः, यूयं वसथ, अहं वसामि, आवां वसावः, वयं वसामः.
हा, समीचीनं भगिनि. हा, अग्रे रघुपति महोदय, तत्र धेनुः धेनुः हा धेनुः चरति. हा, धेनुः चरति,
धेनुः चरति, धेनुः चरतः, धेनवः चरन्ति, त्वं त्वं चरसि, युवां चरतः, यूयं चरत, अहं चरामि, आवां चरावः, वयं चरामः.
हा, समीचीनं. हा, वंशीसुधा भगिनी, तत्र भवती वदति,
भवती वदति, भवत्यौ वदतः, भवत्यः वदन्ति, त्वं वदसि, युवां वदतः, यूयं वदत, अहं वदामि, आवां वदावः, वयं वदामः.
हा, जयन्त् महोदय, तत्र हा माता इच्छति,
माता इच्छति, मातारौ इच्छतः, मातरौ मातरौ इच्छतः, मातरः इच्छन्ति, त्वम् इच्छसि, युवाम् इच्छतः, यूयम् इच्छत, अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः
इति. समीचीनं महोदय. हा, अस्तु, एतावत् वयं साधारणक्रियापदानाम् अभ्यासं कृतवन्तः. तत्र लट्लाकाररूपं कीदृशं भवति इति दृष्टवन्तः. तत्र क्रियापदानां भेदः भवति. क्रियापदानां दशगणाः सन्ति. गणम् अनुसृत्य, न केवलं गणम् अनुसृत्य, किन्तु अन्यदपि किञ्चित् अस्ति. किन्तु तत्र इदानीं यद् मनसि स्थापयितुं स्थापितव्यमस्ति तदस्ति. तत्र सर्वानां क्रियापदानां लट्लकाररूपं समानं भवति इति मा चिन्तयतु. तत्र भेदः अस्ति. अत्र अग्रे विशेषक्रियापदानां रूपाणि दत्तानि सन्ति. तत् एकवारं पश्यामः. अस्तु, तत्र शोभा भगिनी, अग्रिमपुटे यदस्ति तत् तत्र उच्चैः पठत इति यदस्ति.
उच्चैः पठत जानीत च वर्तमानकाले विशेषक्रियापदानि एकवचनप्रयोगः यथा कः जानाति का करोति भवान् चिनोति होता जुहोति एषः क्रीणाति एषा शक्नोति सः
एतत् कुर्मः भगिनि तत्र सर्वं वक्तव्यं तद् बहु भवति एतत् कुर्मः केवलं यत् कः जानाति कौ जानीतः के जानन्ति तदनन्तरम् एषः क्रीणाति भवत्यौ क्रीणीतः एताः क्रीणन्ति तत् केवलं यत् प्रथम तत् किं भवति कालम् इति न जानामि कोऽपि वा जानाति वा भानुचेतन महोदय कालम् इति किमस्ति स्तम्भः अस्तु हा धन्यवादः हा शुभभगिनी केवलं प्रथमस्तम्भे यदस्ति तद् वदतु भगिनि
कः जानाति एषः क्रीणाति सः गृह्णाति कः जानाति कौ
तत्र कौ जानीतः इदानीं
कौ जानीतः के जानीतः महोदय
अस्तु एतत् कुर्मः प्रथमं भवती केवलम् एतत् पठतु तत्र क्रियापदं जानाति इति तस्य रूपं प्रथमपुरुषे एकवचने द्विवचने बहुवचने
क्षम्यतां जानाति जानीतः जानन्ति
तदनन्तरं क्रीणाति
क्रीणाति क्रीणीतः क्रीणन्ति गृह्णाति गृहीतः
गृह्णीतः
गृह्णीतः गृह्णन्ति
गृह्णन्ति इति अस्ति तद् प्रथमं रूपम् अस्ति जानाति क्रीणाति गृह्णाति इति तत्र जानाति तत्र पठति अपि जानाति तत्र भेदः कः
जानाति
तस्य पूर्वं किं भवति
तस्य पूर्वं दीर्घ आकारः अस्ति महोदय
हा समीचीनं भगिनि समीचीनं पठति तत्र ट अनन्तरम् अकारः अस्ति किन्तु अत्र जानाति नकारस्य अनन्तरं दीर्घ आकारः अस्ति समीचीनं क्रीणाति अपि तादृशमेव अस्ति गृह्णाति
अपि
तादृशमेव अस्ति अस्तु समीचीनं तत्र रूपं तादृशं भवति तद् एकः स्तम्भः अस्ति अस्तु अग्रिमस्तम्भः अस्ति करोति इति तत्र उषा भगिनी अग्रिमस्तम्भः पठति वा करोति इति करोति तस्य रूपम् उक्त्वा तदनन्तरं शक्नोति इति रूपं
का करोति
केवलं क्रियापदं वदतु भगिनि
करोति करोति कुरुतः कुर्वन्ति
शक्नोति
शक्नोति शक्नुतः शक्नुतः
शक्नुवन्ति
शक्नुवन्ति शृणोति शृणुतः शृणुतः शृणुवन्ति
इति अस्ति हा समीचीनं भगिनि इदानीं पठति अपि करोति तत्र कः भेदः
पठति ह्रस्व इकारः अस्ति
अत्रापि अत्रापि ह्रस्व इकारः एव ति ह्रस्व इकारः एव
पठति करोति ओकारः अस्ति
हा ति पूर्वम् ओकारः अस्ति हा पठति ति पूर्वम् अकारः एव अस्ति किन्तु अत्र ति पूर्वम् ओकारः अस्ति शक्नोति तत्रापि तदेव अस्ति वा
शक्नोति ति पूर्वम्
ओकारः अस्ति ओकारः अस्ति शृणोति मध्ये
ति पूर्वम् ओकारः अस्ति
हा तत्रापि ओकारः एव अस्ति तद् अन्य द्वितीय तृतीयरूपं भवति एकमस्ति साधारणरूपं पठति पठतः पठन्ति द्वितीयरूपं यद् अत्र दत्तमस्ति जानाति जानीतः जानन्ति तत्र जानाति पठति स्थाने किं भवति जानाति इति भवति पठति पठतः तत्र पठतः अत्र अस्ति जानीतः ईकारः अस्ति पठतः जानीतः पठन्ति जानन्ति तत्र समानमस्ति पठति पठन्ति जानन्ति अत्र किं भवति पठति करोति ओकारः अस्ति इदानीं तत्र भानुचेतनी महोदय तत्र सः एव स्तम्भः तत्र द्विवचने कः भेदः बहुवचने कः भेदः इति वदति वा पठति पठतः पठन्ति करोति कुरुतः कुर्वन्ति
महोदय द्विवचनं
तत्र पठतः पठतः अस्ति अत्र किम् अस्ति करोति कुरुतः कुर्वन्ति पठति न मध्यमपुरुषे न अहं न पृच्छामि यत् अत्र अस्ति तदेव विषयः अस्ति सः एव विषयः पठति इति रूपं किं भवति प्रथमपुरुषे पठति
पठति पठतः पठन्ति
इदानीं करोति रूपं किम् अस्ति करोति
करोति कुरुतः कुर्वन्ति
तयोः मध्ये कः भेदः इति सः एव प्रश्नः
महोदय
पठति
पठति पठतः करोति कुरुतः तत्र
अन्ते तकारः अस्ति
तिङ्प्रत्यये तु समानमेव किन्तु
तकारः अस्ति सरल सरलरीत्या वदतु महोदय यद् अस्मिन् वर्गे भवति तदेव वदतु अन्ये वर्गे किं भवति इदानीं वार्ता मास्तु अस्मिन् वर्गे ये सर्वे जानन्ति तद् मनसि स्थापयित्वा तदेव वदतु अत्र किं भवति करोति पठति करोति भवति तत्र ओकारः अस्ति
एकवचने तिष्ठति
अत्र ओकारः भवति इदानीं पठतः इति अस्ति द्विवचने अत्र किं भवति कुरुतः इति अत्र भेदः कः अन्ते तकारः अस्ति एव किन्तु तकारस्य पूर्वं किं भवति पठतः अस्ति
वैलक्षण्यं भवति
किं किं तदेव वदतु किं वैलक्षण्यम् इति पठतः तत्र किं भवति तत्र प ट प अकारः ट अकारः तदनन्तरं त अकारः अपि विसर्गः तः अः इति अस्ति किन्तु अत्र किम् अस्ति ऋतः कुरुतः इति उकारः अस्ति तः इति पूर्वम् उकारः अस्ति खलु
महोदय
इदानीं बहुवचने किम् अस्ति पठन्ति
कुर्वन्ति
इदानीं किं भवति
कुर्वन्ति तदपि अन्ति इति
समानम्
किन्तु अन्ति पूर्वं कुर्वन्ति तत्र ककारः अकारः स्थाने उकारः अस्ति तत्र किन्तु पठन्ति तत्र अकार एव तिष्ठति
तत्र
तदेव भेदम्
समीचीनं महोदय तत्र कुर् इति अस्ति प्रथम तत्र पठति किं भवति करोति इति भवति तत्र पठति पठतः पठन्ति तत्र प्रथमभागं सर्वदा पठति पठति पट् पट् पट 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 एव अस्ति किन्तु तत्र अत्र प्रथमभागं किं भवति करोति करो इति अस्ति तदनन्तरं कुरु इति अस्ति तदनन्तरं कुर्वन् अत्र एकवचने वा द्विवचने वा रूपं समानं नास्ति खलु करोति इति अस्ति एकवचने, द्विवचने कुरुतः इति अस्ति. अतः तदनन्तरमपि कुर् कुर् तदनन्तरं बकारः आगच्छति तत्र. अत्र बकारः आगच्छति. हा शक्नुवन्ति, तत्रापि बकारः अस्ति वा?
बकारः अस्ति महोदय.
शृण्वन्ति, हा तत्रापि वकारः अस्ति.
शृण्वन्ति वकारः,
वकारः अस्ति. हा अस्तु. अग्रे रघुपतिमहोदय, तृतीयस्तम्भे किम् अस्ति इति एकवारं वदति वा?
तृतीयस्तम्भे
एकवारं पठतु. केवलं क्रियापदं, केवलं क्रियापदं चिनोति इति एकवारं.
चिनोति, चिनुतः, चिन्वन्ति, चिनोति, पठति, प्राप्नोति, प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति, रोदिति, रुदितः, रुदन्ति.
इदानीं पठति, पठतः, पठन्ति, तयोः मध्ये कः भेदः?
अत्र पठति, अत्र चिनोति, चिनोति ओकारः भवति. द्वितीय प्रथम
एकवचने एकवचने ओकारः भवति, ओकार
एकवचने ओकारः भवति,
ओकारं भवति.
मध्यमपुरुषे उकार आगच्छति, ओकारस्य स्थाने पठति, अत्र पठसि, अत्र उकार आगच्छति, चिनुतः आगच्छति,
पठतः स्थाने चिनुतः इति अस्ति, उकारः अस्ति. समीचीनं.
पठन्ति अत्र
सर्वदा उकारः एव अस्ति वा तत्र?
न,
चिनुतः,
चिनुतः, चिनुतः, चिनुतः, प्राप्नुतः, रुदितः, अत्र न, चिनुतः अस्ति,
प्राप्नुतः,
अत्र
रुदितः,
रोदिति, रुदितः, अत्र प्रथम वर्ण उकारः भवति, रोदिति, रु भवति, रुदितः,
रुदितः. तत्र तः पूर्वम् उकारः अस्ति न वा?
तः पूर्वम् उकारः नास्ति तत्र,
अतः भेदः अस्ति खलु. द्वितीयस्तम्भः अपि तृतीयस्तम्भः, तयोः मध्ये भेदः अस्ति खलु.
हा 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 हा, अस्तु अस्तु.
नो चेत् वयं
नास्ति,
उकारः नास्ति, रुदितः इति अस्ति,
शृणुतः, रुदितः
इति अस्ति. अस्तु, इदानीं बहुवचने किं भवति?
बहुवचने पठन्ति, अत्र चिनोति, अस्य चिन्वन्ति आगच्छति, ची ची एवं समानमेव, परन्तु वकारः आगच्छति, वकारः आगच्छति.
अत्र यथा द्वितीयस्तम्भे आसीत् तादृशम् एव भवति वा?
तादृशं, हा तादृशं न, द्वितीयस्तम्भे उकारः आसीत्, अत्र इकारः भवति, चि न, सोरि,
कुर्वन्ति अस्ति, कुर्वन्ति अस्ति, चिन्वन्ति अस्ति,
चिन् समानमेव,
केवलं चिन्वन्, केवलं रोदिति इति,
रोदिति, हा अत्र
वकारः
नास्ति, रुदन्ति आगच्छति,
रुदन्ति
वकारः नास्ति,
तद् हा तद् पठन्ति इति इव अस्ति,
पठन्ति इव अस्ति,
तत्र वकारः नास्ति,
वकारः नास्ति, रुदन्ति.
अस्तु, तत्र अतः द्वितीयस्तम्भे तृतीयस्तम्भे तयोः मध्ये किञ्चित् भेदः अस्ति, रोदिति इति क्रियापदस्य. अस्तु, समीचीनं महोदय. अग्रे वंशीसुधा भगिनी, अन्तिमस्तम्भः, तत्र पठति, पठतः, पठन्ति, तत्र जुहोति इति अस्ति, केवलं क्रियापदम् एकवारं वदतु भगिनि, पठतु.
जुहोति, जुहुतः, जुह्वति.
तदनन्तरं ददाति,
ददाति, दत्तः, ददति, भग्नाति, भग्नीतः, भग्नन्ति
इति अस्ति.
महोदय,
तत्र भेदः अस्ति वा पठति, पठतः, पठन्ति मध्ये?
आम् महोदय, अहं किञ्चित् पश्यामि, यदि उकारः प्रथमवर्णः अस्ति चेत् समानमेव अस्ति, द्वितीयपदे यदि ओकारः अस्ति तत्तु उकारः भवति, द्वितीय द्विवचने तदनन्तरं यदि यण्सन्धि अहं चिन्तयामि उकारः वकारः भवति सर्वे अपि तदा एव अस्ति महोदय चिनोति ओकारः चिनुतः उकारः भवति उकारः अनन्तरं वकारः भवति प्राप्नोति प्राप्नुतः प्राप्नुवन्ति सर्व एकमेव कार्यमस्ति
कार्यं तु एकमेव अस्ति सत्यं भगिनि किन्तु अन्तिम यत् यत् प्राप्नुमः यत् प्राप्नुमः तत्र भेदः रूपस्य भेदः भवति किन्तु कार्यं समानमेव अस्ति सत्यं धातु तस्य परिवर्तनं भवति चेत् यत् वयं प्राप्नुमः तदपि तस्य क्रियापदं यत् प्राप्नुमः तस्य रूपं तस्य परिवर्तनमपि भवति सत्यं अत्र तत्र ददाति इति तत्र द्वित्वम् अस्ति खलु ददाति तत्र ददाति दत्तः ददति
तत्र
तत्र किं यदि वयं ददति इति पश्यामः किं चिन्तयामः तत्र पठति ददति इति अस्ति चेत् किं चिन्तयामः
द्वितीयवर्णः आकारः अस्ति ददाति
न भगिनि सरलप्रश्नः अस्ति यदि पठति इति जानीमः ददति इति पश्यामः किं चिन्तयामः तत्र
पठति ददति अत्र ददाति अस्ति महोदय
सत्तु सत्यं सत्यम् अत्र किन्तु ददति इति अस्ति चेत् किं चिन्तयामः तद् एकवचनरूपम् इति चिन्तयामः
आं महोदय समानमेव अस्ति पठति ददति यदि पठति ददति अस्ति समानपदमेव अस्ति
हा किन्तु पठति एकवचने अस्ति ददति किम् अस्ति
एकवचने ओ एकवचने एकवचनरूपमेव अस्ति महोदय
न प्रथमपुरुषरूपम् अस्ति
ओ ददति ओ क्षम्यता महोदय अहं चिन्तयामि बहुवचनरूपम् अस्ति महोदय
पठति इति एकवचने अस्ति किन्तु ददति इति बहुवचनरूपम् अस्ति ददाति एव एकवचनरूपम् अस्ति
आमां महोदय
खलु तदेव तत्र तत्रापि जुह्वति इति यदि पश्यामः वयं चिन्तयामः तत् प्रायशः ति इति अस्ति अतः एकवचनरूपं प्रायशः अस्ति इति किन्तु तादृशं नास्ति तत्र सर्वत्र पश्यतु तत्र बहुवचने किम् अस्ति अन्ति 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 इति अस्ति किन्तु अन्तिमस्तम्भे किं भवति जुह्वति ददति बध्नन्ति केवलं बध्नन्ति तत्र अन्ति इति अस्ति किन्तु ददति जुह्वति इति तत्र भेदः अस्ति तत् बहुवचनरूपम् अस्ति किन्तु एकवचनरूपं नास्ति इति अस्तु इदानीम् एतदेव यत् केवलं प्रथमपुरुषस्य रूपाणि अत्र दत्तानि सन्ति तस्य एव किञ्चित् वयम् अभ्यासं कुर्मः अस्तु तत्र कः जानाति एतत् विशेषक्रियापदानि सन्ति तस्य अपि मनसि स्थापनीयम् अस्ति इति कृत्वा एतत् कुर्मः यत् अभ्यासं वयं पूर्वं कृतवन्तः तदेव अत्र एव कुर्मः अस्तु उषा भगिनी तत्र कः जानाति इति रूप केवलं कः इति तत्र कः कौ कः कौ काः इति दत्तमस्ति अस्तु तत्र बालकः जानाति इति वदतु भगिनि केवलं प्रथमपुरुषरूपं
बालकः जानाति
बालकौ
बालकौ जानीतः बालकाः जानन्ति
इति अस्ति समीचीनं भगिनि अस्तु हा शोभा भगिनि अग्रे सः क्रीणाति
सः क्रीणाति तौ क्रीणीतः ते क्रीणन्ति
हा इति समीचीनं वेणुगोपाल् महोदय तत्र
सः एव वदति सः तौ ते सा वदति सः वदति महोदय
अहं भवती शुभभगिनी भवती किम् उक्तवती
सः तौ वदति अहं चिन्तयामि ते वदति सः तौ वदति ते वदति
सः तौ
आम्
सः तौ ते हा वेणुगोपाल् महोदय अग्रे सः गृह्णाति तदेव वदतु महोदय सः गृह्णाति तदेव अस्ति किन्तु तस्य द्विवचनरूपं बहुवचनरूपं वदतु
गृह्णाति अस्तु सः गृह्णाति तौ गृह्णीतः ते गृह्णन्ति
यत् सर्वं प्रथमस्तम्भे एव दत्तमस्ति
तत्र
केवलं नामपदस्य परिवर्तनं कर्तृपदस्य परिवर्तनं अस्तु हा इदानीं तदेव तत्र गीताञ्जलि भगिनी तत्र गुरुः जानाति
गुरुः जानाति गुरु जानीतः गुरवः जानन्ति
हा समीचीनं रघुपतिमहोदय मुनिः गृह्णाति गृह्णाति
मुनिः गृह्णाति मुनि गृह्णीतः मुनयः गृह्णन्ति
गृह्णन्ति समीचीनं महोदय वंशीसुध भगिनी तत्र गुरुः क्रीणाति
गुरुः क्रीणाति गुरु क्रीणीतः गुरवः क्रीणन्ति
इति जयन्त् महोदय तत्र बालिका जानाति
बालिका जानाति बालिके जानीतः बालिकाः जानन्ति
समीचीनं भानुचेतनी महोदय तत्र भवती क्रीणाति
भवती क्रीणाति भवत्यौ क्रीणीतः भवत्यः क्रीणन्ति
इति अस्ति समीचीनम् अस्तु अग्रे द्वितीयस्तम्भ तस्य अभ्यासं कुर्मः शोभा भगिनी तत्र माता करोति
मातरौ कुरुतः मातरः कुर्वन्ति
समीचीनम् उषा भगिनी तत्र गुरुः शक्नोति
गुरुः शक्नुतः गुरवः शक्नुवन्ति इति अस्ति
समीचीनं वेणुगोपाल् महोदय मित्रं शृणोति
मित्रं शृणोति
द्वितीयस्तम्भे अस्ति मित्रं पदं मित्रं मित्रे मित्राणि
मित्रं शृणोति मित्रे मित्रे शृणुतः मित्राणि शृण्वन्ति
तद् दत्तमस्ति समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनी तत्र शक्नोति पिता शक्नोति
पितरौ शक्नुतः
समीचीनं भगिनि रघुपति महोदय धेनुः करोति
धेनुः करोति धेनुः कुरुतः धेनवः कुर्वन्ति
समीचीनं महोदय वंशीसुध भगिनि तत्र भवती शृणोति
भवती शृणोति भवत्यौ शृणुतः भवत्यः शृण्वन्ति
समीचीनं भगिनि जयन्त् महोदय तत्र शक्नुवन्ति बालकः शक्नोति
बालकौ शक्नुतः बालकाः शक्नुवन्ति
समीचीनं महोदय बानचेतनी महोदय भवान् शृणोति
भवन्तौ शृणुतः भवन्तः शृण्वन्ति
समीचीनं महोदय शृण्वन्ति समीचीनम् अस्तु इदानीं तृतीयस्तम्भः तत् कुर्मः अस्तु तत्र चिनोति प्राप्नोति रोदिति इति अस्ति अस्तु तत्र
महोदय एकः प्रश्नः अन्यप्रश्नः होता जु होती होता कित्युक्ते महोदय
होतारः होता अहं चिन्तयामि होता इत्युक्ते यः होमं करोति इति
क्रियापदमस्तु
होता होता क्रियापदं नास्ति
होता अर्पणं वस्तु
न न न यः यः करोति यः होमं करोति सः होता इति मन्ये अस्तु महोदय इति मन्ये भगिनि द्रष्टव्यमस्ति किन्तु एतदेव मम मनसि अस्ति अत्र हा गीताञ्जलि भगिनि भवती एव तत्र वयं तृतीयं न कृत तृतीयस्तम्भः न कृतवन्तः खलु अस्तु तत्र भवान् चिनोति इति अस्ति तस्य रूपं वदतु भगिनि
भवान् चिनोति भवन्तौ चिनुतः भवन्तः चिन्वन्ति
समीचीनं भगिनि समीचीनं धन्यवादः हा केवलं प्रथमपुरुषे एव अस्तु अग्रे वंशीसुधा भगिनि तत्र मित्रं प्राप्नोति इति दत्तमस्ति अस्तु बालिका प्राप्नोति
बालिका प्राप्नोति बालिके प्राप्नुतः बालिकाः प्राप्नुवन्ति
हा इति अस्ति हा जयन्त महोदय तत्र भीरुः रोदिति
भीरुः रोदिति भीरो रुदितः भीरवः रुदन्ति
हा समीचीनं महोदय बालचेतनी महोदय तत्र बालिका प्राप्नोति
बालिका प्राप्नोति बालिके प्राप्नुतः बालिकाः प्राप्नुवन्ति
हा समीचीनं हा अस्तु अग्रे उषा भगिनी पिता चिनोति
चिनोति
पिता चिनोति
पिता चिनोति पितरौ चिनुतः पितरः चिन्वन्ति
समीचीनं भगिनि अस्तु शोभा भगिनी अग्रे तत्र बालिका रोदिति
बालिका रोदिति बालिके रुदितः बालिकाः रुदन्ति
हा समीचीनं भगिनि वेणुगोपाल महोदय तत्र प्राप्नोति सः प्राप्नोति
सः प्राप्नोति तौ प्राप्नुतः प्राप्नुवन्ति
समीचीनं महोदय अस्तु इदानीम् अन्तिमम् अन्तिमस्तम्भः यदस्ति तदपि यः अस्ति तदपि तस्य अभ्यासमपि कुर्मः जुहोति ददाति भग्नाति इति अस्तु तत्र हा वंशीसुधा भगिनी अत्र होता जुहोति इति दत्तमस्ति अस्तु तत्र किं कुर्मः पिता पिता ददाति
आम् महोदय पिता ददाति पितरौ दत्तः पितरः ददति
पितरः ददति समीचीनं भगिनि भानुचेतनी महोदय तत्र बालिका बध्नाति
महोदय
बालिका बध्नाति
बालिका बध्नाति बालिके बध्नीतः बालिकाः बध्नन्ति
इति अस्ति समीचीनं हा जयन्त महोदय भगिनी जुहोति
भगिनी जुहोति भगिनी जुहुतः
भगिनी भगिनी इति दीर्घैकार स्त्रीलिङ्गपदं
नदी नदी नद्यो मदी नद्यो नद्य भगिनी भगिनी जुहोति भगिन्यौ जुहुतः भगिन्यः जुह्वति
हा जुह्वति समीचीनं महोदय हा गीताञ्जलि भगिनी तत्र दाता जुहोति
दाता जुहोति दातारौ जुहुतः दातारः जुह्वति.
हा जुह्वति, समीचीनं भगिनि. हा अस्तु वेणुगोपाल महोदय, तत्र हा भवान् ददाति,
भवान् ददाति, भवन्तौ दत्तः, भवन्तः ददति.
ददति, समीचीनं. शोभा भगिनी, तत्र मुनिः जुहोति.
मुनिः जुहोति, मुनि जुहुतः, मुनयः जुह्वति.
हा समीचीनं. हा उषा भगिनी, तत्र व्यक्तिः, हा धेनुः, हा धेनुः बध्नाति.
धेनुः, धेनुः बध्नाति. धेनुः बध्नाति, धेनु बध्नीतः, धेनवः बध्नन्ति इति अस्ति.
हा समीचीनं भगिनि. अस्तु, हा अत्र विशेषक्रियापदानां रूपाणि साधारणक्रियापदानां रूपाणि, तयोः मध्ये भेदः अस्ति इति अत्र तात्पर्यम्. अत्र प्रथमपुरुषे एव भेदः अस्ति. प्रथमपुरुषे एकवचने अपि भेदः भवितुम् अर्हति. पठति वा जानाति, करोति, चिनोति, बध्नाति, ददाति इति. अत्र भेदः, प्रथमतया भेदः अस्ति इति मनसि स्थापनीयम् अस्ति. तदनन्तरं किं किं मध्यमपुरुषे अपि प्रथमपुरुषे रूपाणि कानि इति अग्रे पश्यामः. इदानीम् अत्र अग्रिमपुटे यत् अभ्यासः अस्ति तद् किञ्चित् कर्तुं समयः अस्ति इति मन्ये. अस्तु, तत्र अग्रिमपुटे तृतीय अभ्यासः यदस्ति तद् हा वंशीश्वर भगिनी, तत् एकवारं पठति वा केवलम् अभ्यासः कः इति.
आम् महोदय, तृतीयबिन्दु, एतस्य कोष्टकस्य साहाय्येन यदोहारणं पञ्चविंशति, यदोदाहरणं पञ्चविंशतिवाक्यानि वदत. पञ्चदशवाक्यानि वदत.
इत्युक्ते किम्
इति सहायेन, प्रथमकोष्टकस्य सहायेन द्वितीयकोष्टकम् उपयुज्य वाक्यं रचयामः.
प्रथमकोष्टके किम् अस्ति?
कर्तृपदम् अस्ति. प्रथमकोष्टकस्य
कर्तृपदमस्ति,
द्वितीयकोष्टके क्रियापदमस्ति महोदय.
इति अस्ति, समीचीनं भगिनि. इदानीं तत्र प्रथमम् उदाहरणं दत्तमस्ति, तदेकवारं पठित्वा अन्यत् एकं वाक्यं, तत्र वाक्यत्रयम् इति वदतु भगिनि.
सारथिः चालयति, सारथी चालयतः, सारथयः चालयन्ति.
इदानीम् अन्यत् वाक्यं, किमपि वाक्यं वदतु भगिनि.
द्वितीयवाक्यं वदामि महोदय. मुनिः जपति, मुनी जपतः, मुनयः जपन्ति.
समीचीनं भगिनि. अस्तु, अग्रे वेणुगोपाल महोदय.
अस्तु महोदय, शत्रुः असूयति, शत्रुः असूयतः, शत्रवः असूयन्ति
इति अस्ति, समीचीनं. शोभा भगिनि, अग्रे.
इन्द्रियं हरति, इन्द्रये हरतः, इन्द्रियाणि हरन्ति
इति समीचीनम्. उषा भगिनि,
दुष्टः विनश्यति, दुष्टौ विनश्यतः, दुष्टाः विनश्यन्ति इति अस्ति,
समीचीनं भगिनि. हा अस्तु, अग्रे जयन्त् महोदय.
त्वं मोहयति युवां मोहयतः यूयं मोहयत
इति. अस्तु, अग्रे गीताञ्जलि भगिनि.
अश्वः धावति अश्वौ धावतः अश्वाः धावन्ति
इति समीचीनं. बालचित्रि महोदय, क्लिष्टः अभ्यासः. अत्र अन्यत् किमपि वाक्यं वक्तुं शक्नोति वा भवान्?
स्ववाक्येषु महोदय,
तत्र यद् दत्तमस्ति कर्तृपदम् अपि क्रियापदं, तत्र प्रथमकर्तृपदं प्रथमक्रियापदम् इति किमपि नियमः नास्ति. किमपि संयोजयित्वा वदतु.
मुनिः मन्त्रं जपति.
अस्तु, तत्रैव वाक्यत्रयं वदतु.
आं महोदय, दुष्टौ
न केवलं मुनिः मन्त्रं मुनिः मन्त्रं जपति इति. अस्तु, समीचीनं. तत्र द्विवचने बहुवचने किं भवति इति वदतु, तावदेव.
ओहो महोदय, मुनि मन्त्रं जपतः, मुनयः मन्त्रं जपन्ति.
अस्तु, समीचीनं. वेणुगोपाल महोदय, अत्र अन्यत् किमपि वाक्यं कर्तुं शक्नोति चेत् वदतु.
अस्तु महोदय, त्वं पुस्तकं
त्वं चालयति, तदपि त्वं चालय अस्तु अस्तु, चालयसि इति भवति. अस्तु, अश्वः अथवा दुष्टः चालयति, दुष्टः चालयति.
अस्तु, दुष्टः चालयति, दुष्टौ चालयतः, दुष्टाः चालयन्ति.
इति अस्ति, समीचीनं. अन्यत् शोभा भगिनी, अन्यत् किमपि वाक्यं तत्र कर्तुं शक्नुमः वा?
आं महोदय, अश्वः चालयति,
अश्वः
धावति.
धावति इति अस्ति. तत्र शत्रुः दुष्टः विनश्यति इति अस्ति, शत्रुः विनश्यति, तदपि कर्तुम् अथवा
शत्रुः विनश्यति, शत्रु विनश्यतः, शत्रवः विनश्यन्ति
इति. समीचीनं भगिनि. उषा भगिनी, अन्यत् किमपि तत्र कर्तुं शक्नोति वा? तत्र त्वम् इति तत्र केवलं प्रथमपुरुषरूपं दत्तमस्ति खलु, अतः त्वं त्यजामः.
त्वं त्यजसि,
न त्वं तद् मास्तु. शत्रुः, तत्र शत्रुः असूयति इति अस्ति, दुष्टः असूयति, तदपि कर्तुम् अथवा दुष्टः हरति इति कर्तुं शक्नुमः खलु.
दुष्टः हरति, दुष्टौ हरतः, दुष्टाः हरन्ति.
समीचीनं भगिनि. अस्तु, वंशीसुधा भगिनी, अन्यत् किमपि वाक्यं तत्र कर्तुं शक्नोति वा?
अश्वम् अश्वः शतकं शकटं चालयति.
अस्तु,
अश्वौ शकटं चालयतः, अश्वाः शकटं चालयन्ति.
समीचीनं भगिनि. अस्तु, धन्यवादः. जयन्त् महोदय, तत्र किमपि वाक्यं वक्तुं शक्नोति वा?
सः पुस्तकं पठति, तौ पुस्तकं पठतः, ते पुस्तकं पठन्ति.
समीचीनं महोदय. अस्तु, धन्यवादः. गीताञ्जलि भगिनि, समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र यद् अभ्यासमस्ति, तत्र यद् दत्तमस्ति, तद् विहाय अन्यत् किमपि कर्तुं शक्नुमः चेत् अभ्यासः सौकर्यं भवति, तावदेव. अस्तु, समयः जातः. प्रश्नः अस्ति वा अद्यतनवर्गस्य विषये? कोऽपि प्रश्नः अस्ति वा?
न महोदय.
अस्तु, एतावत् वयं अद्य वयं किं कृतवन्तः, क्रियापदलट्लकारस्य रूपस्य अभ्यासं कृतवन्तः. साधारणक्रियापदानाम् अभ्यासः अपि विशेष कानिचन विशेषक्रियापदानाम् अभ्यासः, तत् केवलं प्रथमपुरुषे एव तस्य अभ्यासम् अद्य वयं कृतवन्तः. अग्रे गत्वा मध्यमपुरुष अपि उत्तमपुरुषस्य रूपाणि कानि इति पश्यामः. अस्तु, अतः समयः जातः, विरमाम. अग्रिम सप्ताहे हा तत्तु किमपि क्लेशः कोऽपि क्लेशः नास्ति. हा अस्तु, विरमाम, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमस्कारः, धन्यवादः.
धन्यवादः
महोदय.
हरि ओम् महोदय, शुभरात्रिः.
धन्यवादः महोदय,
विश्रान्तदिनानि अपि.
धन्यवादः महोदय, धन्यवादः.
महोदय एकः प्रश्नः.